दशश्लोकी न भूमिर्न तोयम् न तेजो न वायुः न खं नेन्द्रियं वा न तेषां समूहः अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न वर्णा न वर्णाश्रमाचारधर्माः न मे धारणा ध्यान योगादयोऽपि अनात्माश्रयाहं ममाध्यासहानात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न माता पिता वा न देवा न लोकाः न वेदा न यज्ञा न तीर्थं ब्रुवन्ति सुषुप्तौ निरस्तातिशून्यात्मकत्वात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादेर्मतं वा विशिष्टानुभूत्या विशुद्धात्मकत्वात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न चोर्ध्वं न चाधो न चान्तर्न बाह्यं न मध्यं न तिर्यं न पूर्वापराधिक् वियद्व्यापकत्वादखण्डैकरूपः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् अरूपं तथा ज्योतिराकारकत्वात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः स्वरूपावबोधो विकल्पासहिष्णुः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न जाग्रन्न मे स्वप्नको वा सुषुप्तिः न विश्वो न वा तैजसः प्राज्ञको वा अविद्यात्मकत्वात् त्रयाणां तुरीयः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् अपि व्यापकत्वात् हितत्वप्रयोगात् स्वतः सिद्धभावात् अनन्याश्रयत्वात् जगत्तुच्छमेतत् समस्तं तदन्यत् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न चैकं तदन्यत् द्वितीयं कुतः स्यात् न वा केवलत्वं न चाकेवलत्वम् न शून्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदान्तसिद्धं ब्रवीमि கதம் சர்வ வேதாந்த சித்தம் ப்ரவீமீ.